ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसि जायतामास्मिन् राष्ट्रे राजन्यति सव्यशूरो महारथो जायत दोर्ध्वीते दुर्वोढा नट्वा नाशुः सत्यः पुरन्धिर्योषा जिष्णो रथे हरिण्यो न ओषधयः पच्यन्तान् योगक्षेमो नः कल्पना
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि यो यो नः प्रचोदयात् युवा गुहि सचीनाय युवा गोस्मदीना भूया बाबाजदाम्ना त्वमग्न पुरुषंसार्य भागते स्पार्हयद्रेग्नः परमं भनोषि तत् आर्द्रस्य चिप्रपातिरुच्यसे पिता प्रपाकं शास्य प्रदिशो विदुष्टरः धृतस्य प्रेषा धृतस्य भीतिर्विश्वायुर्विश्वे अपांसि चक्रुः यस्तुभ्यन्दशाद्यो मा ते शिक्षात् तस्मै जिहित्वान्द्र इन्द्रयस्व भद्रं कर्णेभिशृणुयामदेवा भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुपांसस्तनोभिर्व्यसेम देवहि तञ्यदायुः तं पृच्छता स जगामास वेधसचिकित्वा ईयते सान्वीयते तस्मिन् सन्ति प्रशिषस्तस्मिन् निष्ठयाः स वाचस्य शवसः शुष्मिणस्पतिः इन्द्रश्रेष्ठा निद्रवीणानि देहि चित्तिं दक्षस्य सुभगत्वमस्मे ओषम् रयीणामरिष्टिम् तनूनाम् स्वात्मानम् वाचस्सुदिनत्वमह्ना हेतावो अश्म्युद्याताय जत्राः अतक्षन्धाय भो नव्याशेषम् शवस्य भो वाजन् जगानाः सत्यर्नरथ्यो अहधीतिमश्याः जन्मन् जन्मन्निहितो जातवेदाः विश्वामित्रेभिरिध्यते अजस्रः तस्य भयं सुमतौ यज्ञियस्य अपि भद्रे सौ मनसे स्याः ऋतस्य हि शुरुधः सन्ति पूर्वीः ऋतस्य भीतिर्वृजिनानि हन्ति ऋतस्य श्लोकोपधिरातर्द कर्णा बुधा न शुचमानहायोः यो देवो देवतमो जायमानः भिश्च सुष्मैः तथा नो वज्रम् बाह्वो रुषन्तम् यामनेन रेजयत् प्रभुम ज्यायाम् समस्य यतुनस्य केतुनर्षिस्वरम् च रधियासु नामादे यादृश्मिन्धायितमापस्य या विदध्य उस्वयम् वहाते सो अरम् करत् अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् दधद्रयिम् महिपोषम्